ॐ श्री गणेशाय नमः। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्ति। श्रीगुरुभ्यो नमः। हरिः ओम्। नमस्ते महोदय।
नमस्कार भगिनी, धन्यवादः। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति सङ्ख्याः इति। तस्मिन् विषये वयं अनेकान् अभ्यासान् कृतवन्तः। तत्र भगवद्गीतायाः श्लोकान् सन्ति, तत्र श्लोकस्य सङ्ख्या तत्र पुटसङ्ख्या 64 मध्ये केचन श्लोकाः सन्ति, अपि पुटसङ्ख्या 68 तत्रापि केचन श्लोकाः सन्ति। तत्र अहं चिन्तयामि, तत्र ये श्लोकाः अत्र 68 पुटसङ्ख्या अस्ति तद् कुर्मः, परिशील्यामः। तदनन्तरं यद् पुटसङ्ख्या 64 मध्ये अस्ति तदपि तदनन्तरं कुर्मः। अस्तु, अतः तत्र रघुपतिमहोदय भवानेव तत्र आरम्भं करोति वा महोदय? तत्र प्रायशः 68 मध्ये तत्र प्रथम तत्र श्लोकत्रयं कृतवन्तः महोदय।
अस्तु अस्तु, हा हा,
चतुर्थश्लोकः
चतुर्श्लोकः चतुर्विधा खलु?
हा, चतुर्विधा इति तत्र प्रथमे श्लोके एकः इति सङ्ख्या आसीत्, द्वितीयश्लोके द्वि इति।
चतुर्विधा भजन्ते मां जना सुकृतिनोऽर्जुन, आर्तो जिज्ञासुरर्थार्थी, ज्ञाने च भरतर्षभ। अत्र चतुर्विधा भजन्ते, चतुर्विधा भजन्ते। चतुर्विधा इति अत्र समासः अस्ति वा? चतुर्विधा
हा इति मन्ये महोदय,
चतुर्थी
चतुरिति स्वीकृतं, हा सत्यं,
चतुरिति समासः अस्ति, अतः प्रातिपदिकमेव स्वीकृतमस्ति,
स्वीकृतमस्ति, सत्यं महोदय।
चतुर्विधा इति अस्ति। सुकृतिनोर्जुन आर्थो जिज्ञासु अर्थार्थी, ज्ञाने च भरतर्षभः इति।
विधाः के इति तत्र सुकृतिनः जनाः, सुकृतिनः अर्जुनः,
चतुर्विधा जनाः मां भजन्ते, सुकृतिनः चतुर्विधाः सुकृतिनः जनाः मां भजन्ते। एते के इत्युक्ते आर्ताः, जिज्ञासव अपि च अर्थार्थी, ये अर्थम् इच्छन्ति अर्थार्थी एते, अपि च ज्ञानिनः।
अतः तत्र विधाः, हा समीचीनम्, चतुर्विधाः। अत्र तत्र विधः इति पुल्लिङ्गे अस्ति इति कृत्वा तत्र यदि पृथक्तया वदामः तत्र चत्वारः विधाः इति, चत्वारः विधाः जनाः सन्ति। तत्र सुकृतिनः इति अस्ति, तत्र पदपरिचयं किं भवति महोदय? तत्र
सुकृतिनः जनाः वा?
सुकृतिनः जनाः, हा, बहुवचने, एकवचने,
सुकृत् इति एकवारं, सुकृतिनः सुकृतिनः इति अत्र सुकृतिजनः
जनौ इति तत्र जनः सुकृति अपि बहुवचने जनाः सुकृतिनः तत्र ते के इत्युक्ते आर्ताः इति प्रथमविधः आर्ता तत्र आर्तः इति प्रायशः एव
अजन्तपदम्
आर्तः आर्तः इति अजन्तपदं तदनन्तरम् अस्ति तत्र
जिज्ञासुः
यस्य तत्र जिज्ञासुः
ज्ञातुम् इच्छा इति अस्ति
ज्ञातुम् इच्छा जिज्ञासुः अतः तत्र गुरुशब्दवत् अतः जिज्ञासवः इति बहुवचने तदनन्तरम्
अर्थार्थी अर्थार्थिन् इति अर्थार्थिनः
अर्थार्थिनः इति बहुवचने भवति समीचीनं महोदय
भरतर्षभ इति अत्र तत्रापि अहं चिन्तयामि तत् तद् सम्बोधने अस्ति हे भरतर्षभ इति
हा भरत तत्र भरतर्षभ तत्र भरते
भरत भरत ऋषभ भरतश्रेष्ठ ऋषभ इति
श्रेष्ठ
अत्र समासः अभवत् भरत सन्धि अभवत् सन्धि
हा तत्र ऋषभः इति प्रायशः खलु महोदय
आमां ऋषभ इति
ऋषभः इत्युक्ते तत्र भरत ऋषभः इति तत्र
भरतर्षभः
ऋकारस्य
गुणसन्धि गुणसन्धि सन्धि
अतः तत्र भरतर्षभः भरतश्रेष्ठः
भरतर्षभः इति अत्र विसर्गः नास्ति अतः तत् सम्बोधने अस्ति इति
अतः तत्र अर्जुनः हे अर्जुनः
सम्बोधनद्वयमस्ति अर्जुन चतुर्विधा जनाः मां भजन्ते सुकृतिनः चतुर्विधः चतुर्विधा सुकृतिनः जनाः मां भजन्ते अर्थाः जिज्ञासवः अर्थार्थी अर्थार्थिनः ज्ञानिनः च
इति समीचीनं महोदय हा बहु समीचीनम् अस्तु सम्यक्तया कृतम् एतत् इदानीम् अस्तु समीचीनं महोदय अस्तु धन्यवादः अस्तु अग्रे लक्ष्मी भगिनी अग्रिमश्लोकः
अस्तु महोदय पञ्चेतानि महाबाहो कारणानि निबोध मे साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् पञ्च एतानि महाबाहुः कारणानि निबोध मे पञ्च कारणानि अहं मे चतुर्थी वा षष्टि वा भवति
चतुर्थी इति तत्र मे इति हा तत्र प्रायशः मे इति तत्र
षष्टिः अपि भवितुम् चतुर्थी अपि अस्ति
चतुर्थी
साङ्ख्ये अनन्तरम्
अस्ति अस्तु एकनिमिषं पश्यामः तत्र पञ्च
लैन्
तदपि पठतु भगिनि
साङ्ख्ये कृतानि प्रोक्तानि सिद्धये सर्वकर्मणां साङ्ख्ये कृतानि प्रोक्तानि
कृतान्ते
साङ्ख्ये कृतान्ते प्रोक्तानि
सिद्धये
सर्वकर्मणाम्
इति अस्तु तत्र पञ्च इति इदानीं तत्र आगतं पञ्च
एतानि
महाबाहो
महाबाहो
इत्युक्ते तत्र अर्जुन इति
अर्जुनः
अर्जुन इदानीं तत्र पञ्च एतानि कारणानि
साङ्ख्ये कृतानि सर्वकर्मणां
तत्र प्रोक्तानि साङ्ख्ये कृतान्ते प्रोक्तानि
कृतान्ते साङ्ख्ये कृतान्ते
तत्र भगिनी तत्र किमस्ति, तत्र कारणानि, कति कारणानि सन्ति?
पञ्चकारणानि सन्ति.
एतानि पञ्चकारणानि प्रोक्तानि इत्युक्ते पूर्वमेव उक्तं खलु, उक्तं तत् भगवान् श्रीकृष्णः पूर्वमेव उक्तवान् एतानि कारणानि पूर्वमेव उक्तवान्. कुत्र एतानि श्लोक कारणानि सन्ति इत्युक्ते
साङ्ख्ये
कृतान्ते साङ्ख्ये साङ्ख्यविषये यत् कृतवन्तः तस्य अन्ते कृतान्ते साङ्ख्ये एतानि कारणानि सन्ति. सिद्धये सर्वकर्मणाम् इत्युक्ते तत्र कृत अन्ते सर्वकर्मणां, तत्र अस्तु अस्तु, तत्र सर्वकर्मणां
सिद्धये
इति तु तत्र सिद्धये विभक्ति का तत्र सिद्धये चतुर्थी अस्ति चेत् तत्र अर्थः कः भवति? चतुर्थी विभक्तेः अर्थः तत्र किं, दानम् अथवा दानम् अथवा अन्यः
अकम्प्लिश्मेण्ट्?
एतानि कारणानि सन्ति यत्
साङ्ख्ये कृतान्ते प्रोक्तानि.
साङ्ख्ये कृतान्ते प्रोक्तानि, तत्र साङ्ख्यं यत् अन्ते भवति, तत्र अन्ते भवति साङ्ख्यं, तत् कृतवन्तः, अतः तत् तत् वयं निबोध मे, निबोध इत्युक्ते तत्र तत्र मे निबोध मे तत्र
जानातु इति
जानातु निबोध निबोध इति प्रायशः तत्र लोट् एव अस्ति इति
लोट् लक. हा महोदय,
निबोध तत्र निबोध तत्र
महोदय बोधयति वा जानाति वा, अहं बोधयामि इति
तत्र जानातु इति तत्र लर्न् फ्रम् मी इति अर्थे, लर्न् फ्रम् मी इति अर्थः तत्र मे जानातु इति, तत्र अहं बोधयामि इति अर्थे, किन्तु तत्र अहं बोधयामि इति अहं बोधयामि इति तत्र कर्त्री अर्थे अस्ति भगिनि, अत्र अत्र कर्मणि अर्थे इति अस्ति. तत्र श्रीकृष्णः स्वयं न वदति अहं बोधयामि, किन्तु सः वदति मे निबोध इत्युक्ते अहं बोधयामि भवान् तद् जानातु इति, निबोध मे इति. अस्तु, तत्र निबोध इति प्रायशः तत्र निबोध लोट् लकार अस्ति खलु महोदय तत्र?
आम् आं महोदय, निबोध लोट् लकार एव अस्ति, निबोध इति पठ इति खलु निबोध.
पठातु अस्ति तत्र पट इति त्वम् इति भवति, तत्र महाबाहो इति अस्ति. अस्तु, महाबाहो किन्तु त्वम् इति एव. अस्तु अस्तु, महाबाहो किन्तु
निबोध निबोधतु निबोधतु निबोध
अतः जानातु इति एव समीचीनम् अस्ति. अस्तु, तत्र निबोध मे इति, मे इति तत्र चतुर्थी इति अहं चिन्तयामि, किन्तु तत्र चतुर्थी वा अथवा निबोध मे
षष्टि जानातु इति फ्रम् मी इति तर्हि किं भवति तत्र फ्रम् मी इति खलु फ्रम् मी इति अत्र षष्टि भवति वा फ्रम् मी
जानातु
मे जानातु.
अस्तु, सत्यं भगिनि, तत्र प्रायशः षष्टि एव समीचीनम् अस्ति भगिनि अत्र.
अस्तु,
षष्टि एकवचनं. तत्र निबोध हा जानातु मे इति तत्र चतुर्थी यथा भवती उक्तवती पूर्वं तत्र चतुर्थी वा षष्ठी वा षष्ठी एव समीचीनं यतोहि तत्र चतुर्थी सम्यक् नास्ति अत्र अस्तु समीचीनम् अतः तत्र सर्वं वयं सिद्धेय तत्र चतुर्थी तत्र किमर्थम् इति जानीमः सिद्ध्यर्थम् इति सर्व कर्मणां सर्वकर्मणां सिद्धये अत्र सिद्धये सर्वकर्मणां सिद्धये अत्र तु तत्र षष्ठी सर्वेषां कर्माणाम् इति सर्वकर्मणाम् इति तत्र सर्वेषां कर्माणां सिद्धये सिद्ध्यर्थम् एतानि
पञ्चकारणानि
मया पूर्वं प्रोक्तानि
साङ्ख्ये कृते कृतान्ते
प्रोक्तानि
तानि
कारणानि भवान् अथवा त्वं जानातु मे जानातु तत्र इति समीचीनं भगिनि अस्तु अग्रे धन्यवादः भगिनि अस्तु अग्रे गीताञ्जलि भगिनि इदानीम् अग्रिम तत्र पञ्च इति अभवत् इदानीं तत्र किं षट् इति प्रायः अस्ति
आं महोदय प्रयत्नं करोमि अग्निर्ज्योतिरः शुक्ल षण्मासा उत्तरायणं तत्र प्रयाता गच्छन्ति ब्रह्मविदो जनाः अत्र अग्निर्ज्योति इह अग्निः ज्योतिः इह ज्योतिः अह हा हा क्षम्यताम् ज्योतिः अह अहः शुक्लः षण्मासा इत्युक्ते षट्
योगः मासः तत्र मकारः अनुनासिक
षण् भवति
टकारस्य णकारः टवर्गीय अनुनासिक व्यञ्जनम् तत्र भवति
इत्युक्ते षट् के षट् मासाः
हा इति समीचीनं
उत्तरायणं तत्र प्रयाता गच्छन्ति ब्रह्मविदो जनाः इत्युक्ते ब्रह्मविदाः इत्युक्ते ज्ञानी जनाः ब्रह्म इत्युक्ते ब्रह्मविद् जनाः
तत्र प्रायशः
ब्रह्मविदः जनाः इत्युक्ते
ब्रह्मविदः
ब्रह्मविदः जनः इति अत्र विशेषणमस्ति
ब्रह्मविद् विद् दकारान्त अस्ति
दकारान्त अपि कर्तुं शक्नुमः भगिनि किन्तु अत्र प्रायशः दकारान्त नास्ति तत्र ब्रह्मविदः यतोहि तत्र ब्रह्म ओ क्षम्यतां भगिनि हा ब्रह्मविदः विदः इति एव बहुवचने
द्वितीयविभक्ति बहुवचनरूपं जनाः अपि न
प्रथमविभक्ति
तत्र सुहृत्
सुहृदः हा हा तदेव ब्रह्मविदः जनाः
ब्रह्मविदः जनाः तत्र विसर्गस्य ओकारः भवति अत्र ब्रह्मविदो इति
तदनन्तरं ते के गच्छन्ति ब्रह्मविदो जनाः गच्छन्ति कुत्र गच्छन्ति ब्रह्म प्रयाता इत्युक्ते महोदय
तत्र प्रयाता इत्युक्ते तत्र हा तत्र प्रयाता इति
गतः गताः वा
प्रयाताः याताः इति
गताः इत्युक्ते
ब्रह्मविदोः इति पुनः तत्र जनाः इति पदस्य विशेषणं
हा 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 इत्युक्ते गताः ब्रह्मविदो जनाः इति
तत्र
इत्युक्ते ब्रह्मगताः ब्रह्मविदः जनाः इति
हा अस्तु भगिनि सत्यं सत्यं तत्र अस्तु भगिनि एतत् कुर्मः तत्र क्रियापदं साक्षात् क्रियापदम् अस्ति गच्छन्ति
गच्छन्ति तु क्रियापदम् अस्ति किन्तु
जनाः
गच्छन्ति के जनाः ब्रह्मविदः जनाः
कीदृश
ब्रह्मविदः जनाः प्रयाता
जनाः गच्छन्ति तत्र तत्र गच्छन्ति तत्र इत्युक्ते इदानीं तत्र ब्रह्म इति तत्र ब्रह्मण् इति तत्र किम् अस्ति तत्र कर्मपदम् अस्ति अत्र
अत्र ब्रह्म एव अस्ति महोदय
तत्र तत्र किन्तु एतत् ब्रह्म इति भवति भगिनि तत्र
ब्रह्म इति कर्मपदं महोदय
अत्र सत्यं भगिनि तत्र
गच्छन्ति
ओ
मोक्षं गच्छन्ति इति
रूपं
तत्र ब्रह्मण् इति प्रायशः तत्र एतत् एषः प्रश्नः एतं प्रश्नं पूर्वमपि लक्ष्मी भगिनी पृष्टवती खलु
क्षम्यतां विस्मरामि महोदय
न न चिन्ता मास्तु भगिनि तत्र लक्ष्मी भगिनी पूर्वं पृष्टवती तत्र तत्र गुरुर्ब्रह्मा इति तत्र ब्रह्म तु तत्र पुल्लिङ्गे अस्ति किन्तु परब्रह्म तस्मै श्री तत्र परब्रह्म इति तत्र नपुंसकलिङ्गे अस्ति इति वा इति पृष्टवती पूर्वं लक्ष्मी भगिनी स्मरति वा
अहं न स्मरामि
एतत् जीवने बहुवारं भवति तत्र प्रश्नं कुर्मः तदनन्तरं यदि उत्तरं विस्मरामः तत् समीचीनं किन्तु प्रश्नं पृष्टवन्तः इति मयापि कृतम् अतः चिन्ता मास्तु किन्तु तत्र ब्रह्मन् इति तत्र नपुंसकलिङ्गपदं ब्रह्मन् इति
नकारान्त नपुंसकलिङ्गमस्ति चेत्
कर्मणि तत्र कर्म इति कर्मण् इति कर्मण्
ब्रह्मणि ब्रह्माणि
अतः कर्मपदम् इति भवति अत्र कुत्र गच्छन्ति इत्युक्ते तत्र ब्रह्म गच्छन्ति अथवा प्राप्नुवन्ति इति ब्रह्मस्थितिं प्राप्नुवन्ति इति अपि तत्र वक्तुं शक्नुमः
इत्युक्ते लघुवाक्यं प्रयाता ब्रह्मविदः जनाः तत्र गच्छन्ति
तत्र इत्युक्ते तत्र मोक्षं गच्छन्ति अथवा ब्रह्मस्थितिं गच्छन्ति
इत्युक्ते श्लोके यत्र तत्र यत्र तु नास्ति किन्तु
किन्तु तत्र प्रायशः तत्र इत्युक्ते तत्र गच्छन्ति इति अर्थः भवति अथवा तस्मिन् समये इति अर्थः वा इत्युक्ते उत्तरायणे गच्छन्ति इति अपि तत्र इति
तस्मिन् समये एव महोदय तस्मिन् समये इति समीचीनं
खलु तत्र
तत्तु
अत्र आङ्ग्लभाषायां ट्रान्स्लेशन् पश्यामि तत्र किं तत्र देन् गोयिङ्ग् फोर्त् इति अस्ति इत्युक्ते तस्मिन् समये तत्र उत्तरायणे कस्मिन् समये तत्र उत्तरायणं यत्र अस्ति उत्तरायणसमये षण्मासा उत्तरायणं तत्र षण्मासा उत्तरायणम् इति तत्र विशेषणम् इति
इत्युक्ते विण्टर् सीज़न् षण्मासा उत्तरायणं
क्षम्यतां तत्र षण्मासा उत्तरायणं तत्र विशेषणं नास्ति क्षम्यतां तत्र षण्मासा उत्तरायणं तत्र उत्तरायणम् इति नपुंसकलिङ्गपदं षण्मासा इति तत्र किमस्ति तत्र षण्मासाः इति पदं किन्तु षण्मासा इति तत्र
उत्तरायणे षण्मासाः इति वा उत्तरायणकाले षण्मासाः
षण्मास इति तत्र षण्मासा
उत्तरायणस्य षण्मासा
षण्मासाः इति तत्र सत्यं महोदय षण्मासाः यत् उत्तरायणम् इति उच्यन्ते किन्तु तत्र विशेषणविशेषभावः नास्ति षण्मासाः इति तस्य वर्णनं कथं कुर्मः इत्युक्ते उत्तरायणम् इति वदामः तावदेव अतः तत्र सम्बन्धः अस्ति किन्तु विशेषणविशेषभावः नास्ति तत्र तावदेव तत्र षण्मासः तत्र के षण्मासः इत्युक्ते उत्तरायणम् इति यत् उच्यते ते षण्मासाः तस्मिन् समये अपि अग्निः ज्योतिः अग्निः यत्र अस्ति
अपि प्रथमाविभक्ति एकवचनं
हा यत् यत्र अग्निः अस्ति ज्योतिः अस्ति अह तु तत्र अहर्निशम् इति वदामः खलु डे एण्ड् नैट् अह इति दिने दिने इति
महोदय बहु किमपि प्रथमविभक्ति पदानि सन्ति तत्र
इदानीं तत्र तत्र इत्युक्ते यत्र एते सन्ति एते पदार्थाः अथवा तत्र समयवाचकाः तत्र
भवन्ति
तस्मिन् समये तत्र ये जनाः तत्र विशेषजनाः उक्तवन्तः ते ब्रह्मस्थितिं प्राप्नुवन्ति मोक्षं प्राप्नुवन्ति
उत्तरायणमपि प्रथमविभक्ति तत्र
सत्यं भगिनि षण्मास नाम उत्तरायणम् इति उत्तरायणम् इति नाम्ना षण्मासाः इति
अपि शुक्लः
इति शुक्लपक्षे
अस्तु शुक्लपक्षे तु षण्मासः
न शुक्लपक्षः भिन्नं तत्र शुक्लपक्षः भिन्नं
किन्तु षण्मासानाम्
ओ प्रायशः
बहु किमपि शुक्लपक्षाः सन्ति तत्र अन्तर्भूताः
तस्मिन् समये अतः षण्मासे मासेषु ये शुक्लपक्षाः सन्ति
ये शुक्लपक्षाः षण्मासेषु सन्ति उत्तरायणे
अपि दिनं भवतु अस्ति दिने अपि
दिनेषु
न तु रात्रौ
दिनेषु अपि च अग्निः ज्योतिः
द्वयमपि भवितव्यम्
सर्वाणि भवितव्यं तदनन्तरं तत्र इत्युक्ते तस्मिन् समये ब्रह्मविदो जनाः ब्रह्मविदो जनाः ब्रह्मन् ब्रह्म गच्छन्ति.
अस्तु
अस्तु.
तत्र
अण्डर् आल् गुड् कण्डीशन्स् दे गो.
हा इति सत्यं भगिनि. हा केवलं हा सत्यं सत्यम्. अत्र षड् इति इदानीं तत्र संख्या तस्य श्लोकः अस्ति इदानीं तस्याः संख्यायाः श्लोकः. किन्तु गम्भीरश्लोकः अस्ति. अस्तु समीचीनम्. अन्यप्रश्नः अस्ति वा
अत्र महोदय? अहम् इति किञ्चित् भ्रमः जातः इत्युक्ते अग्निः ज्योतिः अर अह अपि शुक्लः तु एकवचनरूपाणि पदानि.
उत्तरायणं केवलम् उत्तरायणम् इति.
उत्तरायणं तु अवगतम्. उत्तरायणम् इत्युक्ते दीर्घकाल अस्ति.
किन्तु
किन्तु एक उत्तरायणे तु बहवः
भगिनी तत्र एतानि भवन्ति चेत् तत्र उत्तरायणे एतत् सर्वं भवितव्यम् इति तादृशं वर्णनं नास्ति. भगिनी अतः तत्र दिने षड्वादने सप्तनिमेषानन्तरम् इति तादृशवर्णनं नास्ति. केवलं दिनं भवितव्यं, ज्योतिः तत्र उत्तरायणं भवितव्यम्, अग्निः भवितव्यः, ज्योतिः भवितव्यः, अह भवितव्यः, शुक्लः पक्षः भवितव्यः इति वदन्ति. अतः तत्र उत्तरायणे एतत् सर्वम् इति नास्ति. तादृशं वर्णनं नास्ति अत्र.
अवगतं महोदय.
खलु भगिनि? अतः तत्र एतानि सर्वाणि आवश्यकानि, किन्तु सर्वम् उत्तरायणं स्वीकृत्य अन्येषां वर्णनं न कृतम्. सर्वं स्वतन्त्रेण उक्तं खलु भगिनि? उत्तरायणम् एकं एकम् अन्यत् अस्ति शुक्लः, अन्यत् अस्ति तत्र अग्निः, अन्यः ज्योतिः इति, अह इति.
अवगतं महोदय.
अतः तत्र तयोः मध्ये सम्बन्धः न कल्पितः. वयं जानीमः सम्बन्धः अस्ति इति, किन्तु सम्बन्धस्य विषये किमपि न उक्तं
नास्ति तत्र.
हा नास्ति
इत्युक्ते, अपि च उत्तरायणे तु सर्वदा षण्मासाः एव सन्ति न महोदय?
सत्यं. तत्र षण्मासा मासा उत्तरायणं, तत्र षण्मासाः उत्तरायणम्. उत्तरायणं तत्र
यदि श्लोके षण्मासा नास्ति चेत् अपि अर्थः
समीचीनमेव. श्लोके तत्र
छन्दस्य आवश्यकता अस्ति.
अपि यदि तत्र षण्मासा नास्ति चेत् वयम् अत्र श्लोकं न
दृश्यते.
अतः षण्मासा आवश्यकमस्ति.
आवश्यकमेव. धन्यवादः महोदय
अस्माकं कृते. समीचीनं भगिनि. अस्तु धन्यवादः. अस्तु रघुपतिमहोदय, भवानेव अग्रे.
हा महर्षय, महर्षय सप्तपूर्वे चत्वारो मनमस्तता मद्भावा मानसा जाता येषां लोके इमाः प्रजाः. महर्षयः सप्तमहर्षयः पूर्वे चत्वारः मनवः तथा मद्भावाः मानसाः जाता येषां लोकः इमाः प्रजाः इति. अत्र मद्भावाः मानसाः जाताः के? महर्षयः सप्तमहर्षयः चत्वारः मनवः तथा चत्वारः मनवः पूर्वे जाताः इति जाताः. येषाम् इमाः प्रजाः, येषां लोकः येषाम् इमाः प्रजाः इति वा?
येषां
लोकः इयं लोकः वा अयं लोकः वा इमाः प्रजाः अपि जाताः इति वा
इमाः प्रजाः जाताः तत्र इमाः तत्र
लोकः इमाः प्रजाः अपि इति इति वा
हा तत्र अस्तु तत्र अस्तु तत्र मद्भावा मानसा जाता इति तत्र के जाता तत्र मानसा तृतीया जाता मद्भावाः तत्र
मानसाः इति तत्र मानसा इति विभक्ति मानसाः इति
हा तत्र मद्भावः इति तत्र किम् उक्तम् अस्ति चेत् तत्र यस्मिन् मम भावः सन्ति ते मद्भावाः मानसाः जाताः तत्र मानसाः जाताः तत्र मद् हा तत्र मद्भावाः मानसाः जाताः येषां तु तत्र षष्ठी बहुवचनम् प्रायशः तत्र लोके इति प्रायशः अस्ति
इमे प्रजाः इमाः प्रजाः
हा तत्र प्रजा इति स्त्रीलिङ्गे अस्ति खलु
स्त्रीलिङ्गे अतः इमाः
इमे प्रजा इयम् इमे
इमाः
अतः तत्र इयं प्रजा इमाः प्रजाः जाताः तत्र सप्तपूर्वे
जाता इति अत्र मानसा जाता महाशयः सप्त महाशयः चत्वारः मनवः तथा येषां लोकः इमाः प्रजाः
तथा इत्युक्ते ततः इति अर्थः इमाः प्रजाः तत्र येषां
तथा इति आल्सो इति वा महोदय अत्र महर्षय पूर्वे सप्तमहर्षय तथा चत्वारः मनवः मद्भावा मानसा जाता येषां लोकः लोकः इमाः प्रजाः अपि इति इति वा
तत्र येषां तत्र
येषां लोकः इति अस्ति केषां लोकः येषां ये मद्भावा जाताः तेषां लोकः अपि च इमाः प्रजाः केषां येषाम् इत्युक्ते अत्र ये मद्भावाः जाताः तेषाम् इत्युक्ते महाशयः अथवा चत्वारः मानवः तेषाम् इमाः प्रजाः इति वा
तेषां तत्र तेषां तत्र तथा इति अस्ति खलु महोदय तत्र प्रथमे वाक्ये
महोदय मद्भावा मनसा इमाः प्रजाः
न तादृशं न भवति भगिनि तत्र न तत्र इमाः प्रजाः इति भवति भगिनि इमाः प्रजाः लोके ये इमाः प्रजाः तत्र एताः प्रजाः खलु एताः प्रजाः तत्र जनाः इति एते जनाः लोके ये जनाः सन्ति ते कुतः आगतवन्तः इत्युक्ते ते तत्र सप्त महर्षयः अपि तत्र चत्वारः मनवः ये सन्ति ततः सर्वे जनाः तत्र
किं सेवेन् ग्रेट् स्टेजस् अत्र ट्रान्स्लेशन् अस्ति अहं सेवेन् ग्रेट् स्टेजस् एण्ड् बिफोर् देम् बिफोर् अदर् ग्रेट् स्टेजस् एण्ड् मनु दट् इस् प्रोजिनेटर् आफ़् मेन्कैण्ड् कम् फ्रम् मी बार्न् फ्रम् मै मैण्ड् एण्ड् आल् दि लिविङ्ग् बीङ्ग्स् पापुलेटिङ्ग् दि वेरियस् प्लानेट्स् डिसेण्ड् फ्रम् देम्
समीचीनं महोदय. अतः तत्र तत्र महर्षयः सप्तमहर्षयः सन्ति पूर्वं पूर्वे. तत्र पूर्वे इत्युक्ते तत्र अपूर्वः इति तत्र
तथा पूर्वे चत्वारः इति वा इति भवति वा सप्तमहर्षय तथा पूर्वे
तत्र प्रथमतया प्रायशः सप्तमहर्षय महोदय खलु तत्र सप्तमहर्षय तदनन्तरमेव मनवः पूर्वे सप्तमहर्षय पूर्वे तदनन्तरं प्रथमतया सप्तमहर्षयः तदनन्तरं चत्वारः मनवः तदनन्तरं तथा इत्युक्ते तत्र तस्मात् तयोः किं तेभ्यः ऋषे तत्र किं कविभ्यः खलु तत्र
ऋषिभ्यः
महर्षिभ्यः
अपि
मनुभ्यः
इमाः
प्रजाः लोके प्रजाः इमाः प्रजाः सर्वाः जाताः इति जाताः तत्र नाम तत्र आदि तत्र आदिजनकः भगवान् एव किन्तु मध्ये तत्र जनकरूपेण अथवा जनकरूपेण कारणकारणपुरुषः कान् स्वीकर्तुं शक्नुमः इत्युक्ते तत्र सप्तमहर्षयः अपि चत्वारः मनवः ये सन्ति तान् स्वीकरणीयाः तत्र महर्षे स्वीकरणीयः तान् स्वीकरणीयान् इति समीचीनं वा तत्र.
आं महोदय तदेव अस्ति अत्र यद्यपि वयं सम्यक्तया तत्र अन्वयं न जानामि सम्यक् कथं भवति
सम्यक्
न कृतं भाव जानीमः
तत्र मद्भावाः मानसाः महर्षे तत्र प्रायशः मद्भावाः मानसाः मानसाः प्रायशः जाताः अपि तत्र प्रायशः महर्षयः अपि चत्वारः मनवः इति एव तत्र मनवः अपि महर्षय तयोः एव विशेषं भवति
इमाः प्रजाः मद्भावः मानसाः जाताः के इति मानसा मद्भावाः मानवाः जाताः महर्षयः मनवः इमाः प्रजाः लोक इति वा येषां लोकः इमाः प्रजाः इति
तत्र इमाः प्रजाः तत्र किन्तु जाताः इति कस्य पदस्य विशेषणमिति तत्र अहं चिन्तयामि जाताः इति तत्र प्रजाः जाताः वा अथवा
न मानवः ऋषयः
मानवः इति एव तत्र मानसाः
येषाम् इति अस्ति खलु तत्र इमाः प्रजा इति येषाम् इत्यस्य भवति येषाम् इत्युक्ते इमाः प्रजाः मनूनां प्रजाः खलु
सत्यं महोदय सत्यं समीचीनं येषाम् इति तत्र वयं
मानवः इति मनूनां खलु मनुभ्यः एव मानवः खलु
सत्यं अतः तत्र यः तत्र यः सः इति अर्थे खलु महोदय तत्र यः सः यत्र अस्ति तत्र समानविभक्ति नापेक्षितम् अपि तत्र यः इति एव रूपं स्यात् इति अपि नास्ति तत्र यस्य अथवा षष्टि भवितुम् अर्हति खलु तत्र यस्य पुस्तकम् एतत् अस्ति त तस्य नाम अथवा सः गतवान् अस्ति इति तत्र, अतः तत्र यः सः रूप तत्र प्रयोगे समानविभक्ति वा अथवा प्रथमाविभक्ति अपि तत्र न अपेक्षितम्, अतः तत्र अत्र प्रायशः येषां
लोकः इमा प्रजाः मनवः ते मद्भावा मानसा जाताः, तादृश वा मद्भावा मनसा जाताः मनवः
इमाः प्रजाः येषां लोकः इमाः प्रजाः ते मद्भावाः मनसाः जाताः सप्तमर्षयः पूर्वे चत्वारः मनवः
सम्यक्
इति अस्तु समीचीनं। हा तत्र प्रायशः अग्रे किञ्चित् अग्रे अपि गन्तुं शक्नुमः अथवा करणीयमस्ति किन्तु तावदेव। अस्तु अग्रे लक्ष्मी भगिनी अग्रिमम्।
हा अस्तु महोदय।
महोदय क्षम्यतां महोदय, अहम् आङ्ग्लभाषायां ट्रान्स्लेशन् पठामि। द सेवन् ग्रेट् सियर्स् देर् फोर् एल्डर्स् एण्ड् 14 मनूस् आर् प्रोजेनिटर्स् आफ् मेन्कैण्ड् हू वर् आल् डिवोटेड् टु मी वर् बोर्न् आफ् मै विल्। किन्तु अत्र 14
अतः तत्र प्रायशः तत्र चत्वारः इति तत्र
फोर् एल्डर्स् एण्ड् 14 मनूस् इत्युक्ते चत्वारः एल्डर्स् देन् अपार्ट् फ्रम् देट्
अस्तु
अस्तु अस्तु तदपि तदपि समीचीनमेव अस्ति भगिनि। अस्तु 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 अतः तत्र किं
मम सङ्कल्पे जाताः इति पुस्तके अस्ति, मम सङ्कल्पे जाताः सप्त ऋषयः।
हा सत्यं सत्यं, किन्तु भगिनि गीताञ्जलि भगिनी भवती यत् उक्तवती तदपि समीचीनमेव, यतोहि तत्र किम् अस्ति तत्र सत्यमेव, तत्र सप्त महर्षयः वशिष्ठ विश्वामित्र गौतम जमदग्नि भरद्वाज इति अथवा तत्र किञ्चित् तत्र भिन्न आवली अपि भवितुम् अर्हति, किन्तु तत्र सप्त महर्षयः, तदनन्तरं चत्वारः इति यदि तत्र अस्ति चेत् तत्र सनकसनन्दसनातन
सनत्कुमारः इमाः प्रजाः द्वितीया विभक्तौ भवति,
इमाः
प्रजाः जाताः,
किन्तु तद् द्वितीयविभक्ति नास्ति भगिनि, तत्र प्रथमविभक्ति एव
फ्रम् दम् इमाः प्रजाः जाताः
जाताः
येषाम् इति पुस्तके
द्वितीयविभक्ति इति अस्ति वा भगिनि, द्वितीयविभक्ति इति अस्ति वा, द्वितीयविभक्ति प्रायशः नास्ति नास्ति इति मन्ये भगिनि। एकनिमिषः तत्र अस्तु तत्र एकनिमिषः अहं तत्र
प्रथमाविभक्ति एव
प्रथमाविभक्ति एव इति मन्ये, एकनिमिषः तत्र अहं पूर्वं न दृष्टवान् किन्तु इदानीं तत् उद्घाटयामि। तत्र अत्र किम् अस्ति दशम
मम पार्श्वे तात्पर्यम् अपि अस्ति महोदय संस्कृतभाषायां पठामि वा,
सप्त ऋषयः सन्ति अनन्तरं चत्वारः मनु मनवः।
अस्तु भगिनि
प्रथमाविभक्ति एव महोदय, प्रथमाविभक्ति बहुवचन इमाः प्रजाः प्रथमाविभक्ति सन्ति इति अन्ते भवति,
मम प्रभावेन
सप्त ऋषयः सप्त महत् ऋषयः पूर्वे चत्वारः मनवः मद्भावाः मानसाः जाताः येषां लोके इमाः प्रजाः सन्ति इति भवति।
पठामि वा महोदय? अस्तु तात्पर्यं प्रसिद्धाः सप्त ऋषयः तथा पुरातनाः स्वयं भुवादयः चत्वारः मनवः मच्चिन्तनपराः सद्भल्पमात्रेण
सङ्कल्पमात्रेण
स दकार तदनन्तरं
सङ्कल्प सङ्कल्प तत्र कखगङ्गा अस्ति भगिनि तत्र
मुद्रणदोष स्पष्ट
तत्र बिन्दु अपि अस्ति तत्र बिन्दु अस्ति खलु भगिनि
न महोदय मुद्रणदोष सङ्कल्पमात्रेण उत्पन्नाः तेषामेव सन्ततयः इदानीं भूमौ वर्तन्ते
अस्तु भगिनि हा समीचीनं समीचीनं इमा जनाः इमा प्रजाः इत्युक्ते एते जनाः तेषां तेषामेव हा तेषामेव सन् तत्र किम् उक्तवती सन्त
पठामि वा तेषामेव सन्ततयः इदानीं भूमौ
सन्ततिः 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 इत्युक्ते तत्र जन्यः हा तत्र
इत्युक्ते डिसेण्डेण्ट्
हा सत्यं सत्यं सन्ततिः सन्ततयः हा अस्तु बहुवचने तेषां सन्ततयः एव
अत्र लोक इति लोके सप्तमी विभक्ति अत्र किं भवति सन्धि अभवत् अतः अस्माकं भ्रमः अभवत् लोक इति लोके इति अत्र अनन्तरं किं भवति लोके इति इमाः अत्र अयादिसन्धिः भवति अय इति भवति अनन्तरं व्यकारस्य लोपः भवति अतः लोक इमाः इति भवति लोपसाकल्यस्य इत्यनेन यकारस्य लोपः भवति लोके इमाः प्रजाः
लोके
सन्ति इति भवति अत्र अहं चिन्तयामि लोकः इमा इति तत्र न भवति लोकर् इमा भवेत् तत्र विसर्गः अस्ति चेत् तत् मम मनसि अपि विसर्गलोपः लोके अय इति भवति अनन्तरं यकारस्य लोपः भवति शाकलस्य मतेन अतः लोक इमा इति भवति लोके इमा
एव
इदानीम् अवगतं
समीचीनं
अस्माकं भ्रमः तदेव अभवत् लोक इमाः प्रजाः इति अस्ति
समीचीनं किन्तु तत्र इदानीं तत्र जानीमः तत्र सप्तमहर्षयः अपि तत्र मनवः अपि तेषां तत्र सन्ततयः सर्वे जनाः इति अपि तत्र महर्षयः अपि तत्र मनवः तत्र किं तत्र मनसा सङ्कल्पेन सङ्कल्पमात्रेण तेषां जननम् अभवत् इति खलु महर्षि तत्र महर्षीणाम् अपि मनूनां जननं तत्र सङ्कल्पेन एव तत्र जातम् इति किन्तु तत्र यत् गीताञ्जलिभगिनी पृष्टवती तत्र चत्वारः मनवः इति वा अथवा चत्वारः भिन्नम् अपि मनवः भिन्नम् इति तत्र
न पूर्वं चत्वारः आदौ अनन्तरं मनव चत्वारः चतुर्दश मनवः इति वा अनन्तरं
हा तत् तदेव मम मनसि अपि तत्र क्लेशः अस्ति महोदय सत्यं हा
तत्र फोर् इति अनन्तरम् अन्ये मनवः
चतुर्दश
चतुर्दश किमर्थं न उक्तं खलु तत्र
न उक्तम् इति मन्ये महोदय इत्युक्ते अनुवादेन
हा तत्र चतुर् सत्यं भगिनि किन्तु तत्र
आदौ एके मनवः तेषामेव अत्र दत्तमस्ति अहं चिन्तयामि आदौ
अस्तु अस्तु नो न महोदय तत्र अहम् इदानीं तत्र मधुसूदन तत्र तत्र टीका अस्ति खलु तत्र किं लिखितमस्ति चेत् तत्र येषां महर्षीणां सप्तानां भृगु आदीनाम् अपि चतुर्णां च सनकादीनाम् इति तत्र महर्षीणां सप्तानां भृगु आदीनाम् अपि चतुर्णां च सनकादीनाम् अपि मनूनां च चतुर्दशानाम् अस्मिन् लोके जन्मना च विद्यया च भूता सन्ततिभूता इमा ब्रह्मणाद्याः सर्वाः प्रजाः इति अस्ति. अतः तत्र चत्वारः इति भगिनी तत्र चत्वारः इति यत् भवती उक्तवती तत् समीचीनमेव. तत्र मनवः भिन्नः चत्वारः भिन्नः भगिनी.
आं महोदय इति मन्ये, किन्तु चतुर्दश इति तु नास्ति,
न लिखितं चतुर्दश इति न लिखितं.
मनवः इत्युक्ते बहुवचनरूपम् एव, किन्तु चत्वारः
भिन्नपदं
स्तनकादि
भिन्नपदम् इति
चत्वारः स्तनकादि.
हा चत्वारः इत्युक्ते स्तनकादि इति अस्ति. तत्र मधुसूदन तत्र टीकायाम्
अस्तु महोदय,
किन्तु
अन्यत्र नास्ति महोदय. तत्र सेवेन् ग्रेट् सेजेस् आर् एज़् आल्सो दि फोर् मनूस् आफ़् एन्शियन्ट् डेस् स्वामी गम्भीरानन्द लिखित इङ्ग्लिश् ट्रान्स्लेशन् पठन् अस्मि. अहूम् आर् दि अतः चत्वारः मनवः एव अत्र अत्र
तत्र चत्वारः अस्तु. तत्र यस्मिन् सन्तते छात्रः
लोके महापदाः सन्ति
तत्र. अस्तु महोदय तत्र हा किन्तु
महोदय द्वे अपि समीचीनमिति
समीचीनमेव, किन्तु किन्तु तत्र यत् या इच्छा आसीत् खलु
चत्वारके महोदय चत्वारके तर्हि चत्वारके
सनक सनन्दन सनत्सुजाता सनत्कुमार इति.
किन्तु तत्तु
चत्वारः वा
हा तत्र मधुसूदन टीकायाम् एतदेव दत्तमस्ति महोदय. येषां महर्षीणां सप्ताहनां भृगु आदीनाम् इति, तदनन्तरम् अस्ति चतुर्णां च सनकादीनां.
परन्तु सनकादयः ते मनवः न सन्ति अत्र दत्तमस्ति.
मनवः न सन्ति
ते रेफ्यूस् दीस् फोर् कुमारा डिक्लैन् टु मेरि अण्ड् क्रियेट् आफ् स्ट्रिङ्ग् इति अस्ति दत्तमस्ति अत्र. तेषां लोकः न भवितुमर्हति प्रजाः. अतः तत्र मनवः एव मनवानां मनूनामेव प्रजाः
महोदय तत्र. अस्तु 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 तत्र प्रायशः तत्र हा सन्देहः भवितुम् अर्हति. किन्तु तत्र वयं जानीमः खलु तत्र मनूनां तत्र साधारणरूपेण तत्र किं सन्ततिः भवति इति. किन्तु तत्र मानसिकपुत्रः अपि तत्र तादृशशक्तिः अपि अस्ति खलु तेषाम्. अतः तत्र न जानीमः, तत्र केवलं वदामि न जानामि. तावदेव अस्तु अस्तु. वयं
The seven great rishis and the four ancient manus endowed with my power were born of my mind and from them have come forth all the creatures of in the world.
Samichinam bhagini astu idanim sarve angikurmah astu astu samichinam asti ha astu dhanyavadah astu idanim Gitanjali bhagini agre
astu astu तत्तु समाप्तं महोदय.
ओ अस्तु अस्तु इदानीं लक्ष्मी भगिनी भवती एव अग्रे
भूमिरापो नलो वायुः खं मनो बुद्धिरेव च अहङ्कार इति यं मे भिन्ना प्रकृतिरष्टदा. भूमिः आपः अनलः वा वायुः
खम् इति आकाशः
मनः
बुद्धि एव च
अहङ्कार
अहङ्कार इति इयं मे भिन्ना प्रकृति अष्टदाः अष्टविधाः
तत्र अष्टभागाः कुर्मश्चेत् तत्र अष्टविधाः सन्ति अष्टविधाः तत्र पुनः मे इति षष्टि इति मन्ये भगिनि पुनः अत्र खलु मम प्रकृति अष्टविधा भिन्नाः अष्टविधाः खलु अहं भिन्नः न मम मे इति मम खलु अत्र मम
अक्षदा प्रकृतिः अस्ति
भिन्नप्रकृतिः अतः तत्र षष्ट्यर्थे
अष्टदा भिन्नप्रकृतयः
सन्ति इति
महोदय
अष्टदा इत्युक्ते अष्टभागेन
अष्ट किं भूमिः
एतत्तु प्रसिद्धः अस्ति भगिनि
अहङ्कारः
भूमिः इति प्रथमः
अस्तु अस्तु अन्तिम तु अहङ्कारः अत्र किन्तु च पूर्वम् आयाति छन्दे तदेव
सत्यम् अतः तत्र भूमिः आपः अनलः वायुः तदनन्तरं खम् इति आकाशः
मनः
बुद्धिः अहङ्कारः
अतः तत्र किं तत्र पञ्चभूतानि खलु
एतेभ्यः भिन्नः प्रकृति
तत्र
मम प्रकृति एतेभ्यः भिन्न
एतेभ्यः भिन्ना न एतेभ्यः भिन्ना न भगिनि एते एव तत्र षड्विधाः प्रकृतेः मम प्रकृतेः षड्विधाः
अष्टविधाः
भगिनि अष्टविधाः
किं महोदय
किं भगिनि
भिन्न किं
भिन्न डिफ्रेण्ट् एय्ट् थिङ्ग्स् दि एय्ट् डिफ्रेण्ट् फार्म्स् भिन्नविधाः मम भिन्नविधाः एय्ट् डिफ्रेण्ट् फार्म्स् अथवा आफ् मै नेचर् इति अर्थे
आफ् मै नेचर् अस्तु अस्तु तदवगतं धन्यवादः महोदय
अतः तत्र पञ्च भूतानि अथवा भूताः तत्र नपुंसकलिङ्गे अस्ति खलु
भूतानि सन्ति
पञ्चभूतानि अतः तत्र पञ्चभूतानि तदनन्तरं तत्र मनः बुद्धिः अहङ्कारः इति पञ्चतत्त्वाः तदनन्तरं तत्त्वं वा तत्त्वः
तत्र तत्त्वानि तत्त्वं तत्त्वानि वा पञ्च तत्त्वं न
रघुपतिमहोदय तत्त्वः वा तत्त्वं वा
तत्त्वं तत्त्वानि पञ्चतत्त्वानि
नपुंसकलिङ्गे एव अस्तु पञ्चतत्त्वानि तदनन्तरं मनः
बुद्धिः
अहङ्कारः इति अतः तत्र षड्विधाः इति पुनः अष्टविधाः क्षम्यताम् इदानीं समीचीनं वा भिन्नाः अष्टविधाः भिन्नाः अष्टधा इत्युक्ते अष्टभागः यदि कुर्मः
प्रकृतिः सन्ति
प्रकृतेः अष्टभागः भागः कुर्मश्चेत् तत्र भगवतः प्रकृतेः अष्टभागाः इति
सम्यक् अवगन्तुं पूर्वतन श्लोकानां अपि अध्ययनं कुर्मः चेदेव सम्यक् अवगमनं भवति एकस्य न भवति खलु भवति तत्र पूर्वतनश्लोकस्य सम्बन्धः भवितुमर्हति अतः वयं न जानीमः
सत्यं महोदय तत्र तत्त्वानां विषये किमपि प्रायशः पूर्वस्मिन् श्लोके भवेत् अस्तु तर्हि इदानीं तत्र समीचीनं लक्ष्मी भगिनी धन्यवादः. अस्तु इदानीं तत्र गीताञ्जलि भगिनी अग्रिमश्लोकः.
आं महोदय. सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी नवद्वारे पुरे देहि नैव कुर्वन्न कारयन्. अस्तु. सर्वकर्माणि मनसा सनन्य
इति अस्ति वा महोदय? सन्न्यस्यास्ते
सुखं वशी नवद्वारे पुरे देहि नैव कुर्वन् कारयन्. 13.6 तु मम पुस्तके तु इति श्लोकं नास्ति.
तत्र प्रायः मुद्रणदोषः.
संख्यायाः
मुद्रणदोषः अस्ति इति मन्ये भगिनि. सत्यम्.
अस्तु अस्तु अहमेव प्रयत्न करोमि. कारयन्तु शत्रन्त अस्ति न महोदय? कारयन् कुर्वन्
कुर्वन्
कारयन् द्वे अपि शत्रन्त वा?
कुर्वन् सत्यं. कुर्वन् प्रायशः तत्र कुर्वन् न कारयन् इति प्रायशः.
कुर्वन् कुर्वन् न
अपि न कारयन् इति प्रायशः.
कुर्वन् न
सर्वकर्माणि इति तत्र कुत्र अस्ति तत्र सर्वकर्माणि इति प्रायशः अस्मिन् एव
महोदय त्रयोदश श्लोकः अस्ति पञ्चमाध्यायस्य.
पञ्चमाध्याये इति वा?
हा 5:13 इति अस्ति. पश्यतु.
धन्यवादः महोदय. हा 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 तदेव. अस्तु.
हा हा सर्वकर्माणि मनसा सन्न्यस्यास्ते. अस्तु.
सर्वकर्माणि मनसा
सन्न्यस्य.
सन्न्यस्य इति लेबन्त रूपमस्ति.
सन्न्यस्य अस्ते आस्ते आस्ते इति तत्र
आस्ते इति क्रियापदम् आस्ते. किम् आस्ते? कः आस्ते? मनसा आस्ते न मनसा न
सर्वकर्माणि मनसा सन्न्यस्य आस्ते.
कर्तृपदं किं महोदय?
तत्र तत्र वशी इति अस्ति. वशी इति अस्ति तत्र. वशी इत्युक्ते तत्र जितेन्द्रियः इति अस्ति खलु.
वशी जितेन्द्रियः इति दत्तं. जितेन्द्रिय देही तु वयं जानीमः शरीरिणः पुरुषः. नवद्वारे पुरे तु सप्तमी. सर्वकर्मणि
अत्र तत्र किम् अस्ति?
मनसा तु तृतीया मनसा.
तत्र जितेन्द्रियः तत्र वशी अतः तत्र भगिनी तत्र क्रियापदं किम् आस्ते इति क्रियापदं. कर्तृपदं किं? वशी
ओ अस्ति. वशी वा?
वशी आस्ते. आस्ते इति तत्र वशी इत्युक्ते तत्र यः इन्द्रियाणां उपरि तत्र जयं प्राप्तवान् जितेन्द्रियः. वशी कृतवान्
यथा गुणी.
तत्र वशं कृतवान्. तत्र वशः
गुणिन् वशिन् वा नकारान्त वा
नकारान्त नकारान्तपदं वशिन् वशिन्
मास्टर् इत्युक्ते मास्टर्
हा सत्यं सः आस्ते सः तिष्ठति
सुखं तिष्ठति वशी सुखम् आस्ते
न न वशी आस्ते वशी आस्ते
हा ओके वशी आस्ते किन्तु
वशी इति कर्तृपदं सुखं 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 कर्तृपदं नास्ति
न कर्तृपदं न
किन्तु प्रथमतया क्रियापदं कर्तृपदं तत्
हा हा लघुवाक्यं वशी
आस्ते वशी
आस्ते कीदृशवशी देहि देहि आस्ते इति भवति
हा देहि
किं कुर्वन् आस्ते न कुर्वन् न कारयन् एव कुत्र नवद्वारे पुरे कथं मनसा सन्न्यस्य सुखम् आस्ते इति भवति वशी देही न कुर्वन् न कारयन् एव नवद्वारे पुरे मनसा सन्न्यस्य सुखम् आस्ते सुखेन तिष्ठति इति
सुखे सुखेन तिष्ठति सुखेन तिष्ठति समीचीनं तत्र मनसा यदि भवती उक्तवती तृतीया मनसा सन्न्यस्य तत्र किं सन्न्यस्य सर्वकर्माणि सन्न्यस्य तत्र सर्वकर्माणि मनसा सन्न्यस्य सन्न्यस्य इति अस्ति खलु तत्र लेपन्तम् इति उक्तं सन्न्यस्य सर्वकर्माणि मनसा मनसा इति माध्यमम् अथवा करणं सन्न्यस्य वशी सुखम् आस्ते तत्र जितेन्द्रियः सुखेन तिष्ठति
कुत्र इति
कुत्र
नवद्वारे पुरे इत्युक्ते शरीरे इति
तिष्ठति देहि इति पुनः वशी इति पदस्य विशेषणं
विशेषणमस्ति देहि
देहः यस्य अस्ति सः देहिन् वशिन्
ईदृशदेहि यस्य इन्द्रियाणां वशः अस्ति वशीकृतवान् तादृश वशी देहि सुखम् आस्ते सर्वं त्यक्त्वा
सर्वं त्यक्त्वा त्यक्त्वा अतः यतः सः त्यक्तवान् अतः तत्र कुर्वन् न कारयन् अत्र अत्र न कुर्वन् न कारयन्
न करोति न कारयति
न करोति न कारयति न करोति न कारयति अतः तत्र तत्र न नकारः द्विवारम् आगच्छति खलु तत्र न एव न एव कुर्वन् न कारयन् आस्ते वशी आस्ते देहि देहि इत्युक्ते वशी इति पदस्य वशी इति पदस्य विशेषणं भगिनि वशी इत्युक्ते
समानार्थक एव न देहि वशी
इत्युक्ते
यस्य देहः अस्ति सः देहि किन्तु वशी इत्युक्ते सः इन्द्रियाणाम् उपरि जयं प्राप्तवान् वयं सर्वे देहिनः किन्तु वशिनः इति न वक्तुं शक्नुमः खलु भगिनि अतः तत्र भेदः अस्ति
यस्य देहः सः देहि
यस्य देहः अस्ति सः देहिन्
सः
देहि अथवा यस्याः देहः अस्ति सा देहिनी इति प्रायशः भवति पुल्लिङ्गे देहि अपि वशि इति तत्र यः भवती उक्तवती तत्र मास्टर् इति अर्थे तत्र तत्र जितवान् तत्र इन्द्रियाणाम् उपरि जयं प्राप्तवान्
चिन्तयन्
न मनसा भिन्नं तत्र मनसा मनसा पदमस्ति किन्तु जितेन्द्रियः तत् प्रायशः मनसा एव किन्तु इदानीं
तत्र किं करोति
मनसा सन्न्यस्य इति सर्वकर्माणि मनसा सन्न्यस्य
ओ अस्तु हा हा मनसा सन्न्यस्य हा हा मनसा सन्न्यस्य
सर्वकर्माणि मनसा सन्न्यस्य
हा 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 मनसा सन्न्यस्य अस्तु अस्तु सर्वकर्माणि
मनसा सन्न्यस्य
बै माइंड हैविंग abandoned, the master resides without performing and without causing. Tadeva.
Satyam
bhagini. Sukham, sukham.
In bliss.
Avagatam. Academically avagatam.
आस्ति इति सिट् इति अस्ति किन्तु अत्र प्रायशः इन् अ स्टेट् आफ् ब्लिस् किम् अस्ति तत्र इस् इन् अ स्टेट् आफ् ब्लिस् इति प्रायशः अथवा तत्र सीटेड् इन् ब्लिस् इति तत्र बहु किमपि पुनः वक्तव्यमस्ति किन्तु
उत्तमम्
अस्माकं प्रयत्नः जातः खलु प्रयत्नं कृतम् अस्तु सत्यं महोदय इदानीं महोदय तत्र अन्तिमश्लोकः इति अत्र संख्यायाः दोषः आसीत् तस्य समीकरणं भवति 513 इति खलु महोदय
अग्रिमं 13.5 अस्ति
तत्तु सत्यं
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च इन्द्रियाणि दशैकञ्च पञ्चचेन्द्रियगोचराः महाभूतानि अहङ्कारः बुद्धिः अव्यक्तम् एव च इन्द्रियाणि दशैकञ्च पञ्च च इन्द्रियगोचराः इति
इन्द्रियगोचराः
पञ्च च किम् अस्ति तत्र महाभूतानि अहङ्कारः
पञ्चभूतानि पञ्चभूतानि इदानीमेव दृष्टवन्तः पुनः तत्र
महाभूतानि बुद्धिः अव्यक्तमेव इन्द्रियाणि दश एकञ्च पञ्च
तत्र अहङ्कारः
पञ्चेन्द्रियाणि
महाभूतानि तत्र भूतान्यहङ्कारः यहङ्ककारो
भूतानि अहङ्कारः अहङ्कारः भूतानि पञ्चभूतानि अहङ्कारः
तत्र इकारः अकारः यकारः महाभूतानि अहङ्कारः तदनन्तरं बुद्धिः अव्यक्तं एव च इन्द्रियाणि दश एकं च पञ्च दश एकं च पञ्च च इन्द्रियगोचराः तत्र महाभूतानि सन्ति अपि तत्र अहङ्कारः अस्ति तदनन्तरं किं बुद्धिः इति अस्ति
दश इन्द्रियाणि वा
पञ्च इन्द्रियाणि अनन्तरं पञ्च
महाभूतानि वा दश एकं च इति चेत् एक इति मनः वा एकम्
अन्वयः अस्तु तत्र इन्द्रियाणि दश एकं च पञ्च इन्द्रियगोचराः तत्र इन्द्रियाणाम् अत्र इन्द्रियैः यत् ग्राह्यते तत्र किं तत्र भूतानि सन्ति किन्तु तत्र पृथ्वी इति तत्र पृथ्वी अथवा जलम् इति अस्ति पञ्चभूतानि सन्ति किन्तु इन्द्रियं तत्र किं चक्षुः अस्ति चेत् तत्र चक्षुः
नासिका कर्णः
इति अस्ति तत्र चक्षुषा किं वयं किं कर्तुं शक्नुमः तत्र
तेन
रूपं द्रष्टुं शक्नुमः खलु रूपं गोचरं तत्र चक्षुषा इन्द्रियैः किं किं ग्राह्यते इति प्रश्नः खलु तत्र चक्षुष तत्र श्रोत्रेन्द्रिये श्रोत्रेन्द्रियम् अस्ति खलु कर्णः कर्णेन किं किं कर्तुं शक्नुमः
श्रोतुं
शक्नुमः अतः तत्र तत्र किम् अस्ति तत्र शब्दम् इति खलु अतः तत्र किं महाभूतानां तत्र महाभूतानि सन्ति अपि तत्र पञ्च इन्द्रियगोचराः सन्ति इन्द्रियगोचराः इत्युक्ते तत्र यत् इन्द्रियं ग्राह्यते गृह्णाति इन्द्रियैः यः यत् इन्द्रियम् अस्ति तत् किं गृह्णाति इति चक्षुः किं गृह्णाति रूपं गृह्णाति खलु चक्षुषा वयं रूपं द्रष्टुं शक्नुमः खलु
महोदय कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि इति अहं पूर्वं
सत्यं भगिनि तदेव अस्ति इति मन्ये तत्र हा तदेव अस्ति तत्र इन्द्रिय पञ्च इन्द्रियगोचराः इत्युक्ते तत्र
दश इन्द्रियाणि
हा तत्र
दशैकम् अस्ति
ज्ञानेन्द्रियाणि अत्र ज्ञानेन्द्रियाणि अत्र येन ज्ञानं प्राप्नुमः चक्षुषा
कर्म इन्द्रियाणि पादः
तदपि अस्ति तत्र इन्द्रियगोचराः इन्द्रियगोचराः तत्र कर्मेन्द्रिय अपि भवितुमर्हति हा तदपि भवितुमर्हति भगिनि किन्तु इन्द्रियगोचराः तत्र इन्द्रियाणि न सन्ति इन्द्रियगोचराः तु तत्र इन्द्रियेण इन्द्रियं यत् अस्ति तेन
यम् इन्द्रियाणि इच्छन्ति
न न गृह्णन्ति विषयः इति विषयः अथवा तत्र यत् इन्द्रियेण वयं ज्ञातुं शक्नुमः तत्र चक्षुषा रूपस्य ज्ञानं भवति श्रोत्रेन्द्रियमस्ति तेन वयं शब्दं श्रोतुं शक्नुमः खलु शब्दस्य ग्रहणं भवति श्रोत्रेन्द्रियेण अतः तत्र ते तत्र तादृशज्ञानं तत्र इन्द्रियगोचराः तदनन्तरं किम् अस्ति तत्र इन्द्रियाणि किन्तु दश पुनः एकम् इति तत्र किं
दश ओर्गन्स्
आफ् पर्सेप्शन्
मनः
इति अस्ति एक इति मनमस्ति एकं यद्यपि न दत्तमस्ति तत् एकं मनः इति स्वीकर्तव्यम् इति अस्ति महोदय दशेन्द्रियाणि सन्ति इन्द्रियगोचराः पञ्च इन्द्रियगोचराः पञ्चमहाभूतानि मनः एकं मनः इति अस्ति बुद्धि इति तादृश
प्रायशः सत्यं महोदय अस्तु तदेव अस्ति
अपि च अग्रिमश्लोकस्य एव तत् तदा स्वीकृत्य एव पठनीयम् इति अस्ति तत्र दत्तमस्ति कुत्रचित्
अर्धश्लोकः एव अत्र अस्ति
अर्धश्लोकः एव अस्ति आमाम्
अस्तु अस्तु
तत्र सम्बन्धः भवति
अस्तु किन्तु तत्र केवलं तत्र इदानीं तत्र किं दश इति पूर्वस्मिन् श्लोके नव इति विषयः अस्मिन् श्लोके दश इति विषयः अस्ति अस्तु समीचीनम् अपि तत्र प्रायशः तत्र सम्यक्तया न अवगतं मया एतत् एषः श्लोकः मया न किन्तु तत्र गोचरः इति विषये तत्र किञ्चित् प्रायशः वक्तुं शक्नुमः तत्र गोचरः इत्युक्ते जानाति वा गोचरः इत्युक्ते कः अर्थः
आं महोदय सेन्स् आब्जेक्ट्स् महोदय
हा गोचरः खलु तस्य तत् किमपि भवति सः आगतवान् इति तस्य आगमनस्य गोचरः इति खलु, सः आगतवान् इति अहं जानामि, तत्र गोचरः इति वदामः. तत्र गोचरः इत्युक्ते अर्थः कः?
इन्द्रिय गो इति तस्य तत्र इन्द्रिय इति भवितुमर्हति वा? गो इति लोक इति.
हा तत्र महोदय, तत्र गो अस्ति यत्र गोचरति, तत्र नाम तत्र द्रष्टुं शक्नुमः इन्द्रियेण, तत्र इन्द्रियैः ग्रहणं भवितुम् अर्हति. तादृश तत्र तत्र फील्ड् आफ् विजन् इति तदस्ति गोचरः. फील्ड् आफ् विजन् किम् अस्ति?
यत्र
गोचरति ज्ञातुं शक्नुमः सः अस्ति गोचरः. तत्र फील्ड् आफ् सेन्सस् अथवा फील्ड् आफ् विजन् यत्र वयं तत्र गोः तत्र गो अस्ति तस्य चरणं तत्र चरति, तत्र इतस्ततः गच्छति खलु, तत्र चरति इति तस्य चरणं ज्ञातुं शक्नुमः तस्मिन् लोके, तस्मिन् लोकस्य तस्मिन् देशे यत्किमपि भवति तद् गोचरः इति वदामः. यतोहि तस्य ज्ञानम् अस्माभिः कर्तुं शक्नु तत् ज्ञातुं वयं शक्नुमः. तत्र विजिबल् वर्ल्ड् इति अर्थे विजिबल् अथवा तत्र यत् इस् वितिन् द स्कोप् आफ् अवर् सेन्सस् गोचरः इति. तत्र गोचरति तद् द्रष्टुं शक्नुमः तादृशः गोचरः इति. समीचीनं.
भिन्नभिन्न गो इत्यस्य महोदय तत्र भिन्नभिन्न अर्थाः सन्ति. अमरकोशे अस्ति एकं तु गो इति दिक् अर्थे अस्ति, एकं तु नेत्रस्य अपि नेत्रं लोचन नयन गो इति.
तदपि समीचीनं. यत्र नयनं गन्तुम् अर्हति. समीचीनं महोदय, अस्तु.
जलम् इत्यस्यपि भवति गो इति, जलम् अर्थः अस्ति, इन्द्रिय अपि अस्ति, भूमि अस्ति इति भिन्नभिन्न. ऋषभः इति गो इति ऋषभः इति तत्र
ऋषभः अपि अस्तु,
तत्र भिन्नभिन्न अर्थाः सन्ति. इन्द्रिय अपि अर्थः अस्ति गो इत्यस्य, नयन नयन नयन
नयन अतः चक्षुः चक्षुः अस्तु.
इन्द्रियाणि पञ्च इन्द्रियाणि सन्ति, अनन्तरं इन्द्रियगोचराः पञ्च, मिलित्वा दश
मिलित्वा दश. एकः मनः अगोच एकञ्च एकञ्च मनः इति मनः
तत्र दश इति प्रायशः तत्र पञ्चभूतानि अपि पञ्च इन्द्रियाणि वा अथवा पञ्च
इन्द्रियगोचराः पञ्च.
दश इत्युक्ते पञ्च
गोचराः, आब्जेक्ट्स् आफ् सेन्सस् इति अर्थः लिखितं.
ज्ञानेन्द्रियाणि
आफ् सेन्सस् इन्द्रियगोचराः.
फैव् सेन्सस् नास्ति, केवलं पञ्च इन्द्रियविषयाः.
सेन्सस् इन्द्रियाणि सेन्सस् इति
सत्यं सत्यम्.
इन्द्रियगोचराः आब्जेक्ट्स् आफ् सेन्सस्
सत्यं भगिनि. सत्यं. यथा शब्दः
दश तु पञ्च इन्द्रियाणि, पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि दश.
अस्तु,
पञ्च पञ्च
पञ्च पञ्च.
अपि च एकं इत्युक्ते मनः
मनः इति
एकादश कुल्.
अस्तु समीचीनम्. अस्तु, इदानीं तत्र श्लोकान् पठितवन्तः. इदानीम् अग्रिमे वर्गे तत्र अग्रे पूर्णप्रत्ययाः इति विषयः भवति. अस्तु समीचीनम्. अस्तु, रघुपतिमहोदय भवान् एव अन्ते तत्र शान्तिमन्त्रं वदति वा महोदय?
आं महोदय. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिश्शान्तिश्शान्तिः. श्रीगोप्यो नमः. धन्यवादः.
धन्यवादः. बहु समीचीनमासीत् अद्य.
धन्यवादः.
धन्यवादः. नमस्कारः.